षोडशोऽध्यायः सर्वविस्मरणादेव आत्मानन्दप्राप्तिः विगतप्रयत्नानिर्विषयानिष्ठैव अमर्पितानन्दस्थितिः विगतरागद्वेषः चित्तवृत्तिहीनः अहम् ममादिरहितः हेयोपादेयमुक्तः ताम् निष्ठाम् प्राप्नोति इति अष्टावक्रवचनम्।
अष्टावक्र उवाच: आचक्ष्वशृणुवातात नानाशास्त्राणि अनेकशः तथापि नवतव स्वास्थ्यम् सर्वविस्मरणादृते। भोगम् कर्म समाधिम् वा कुरु विज्ञ तथापि ते चित्तम् निरस्त सर्वाशम् अत्यर्थम् रोचयिष्यति। आयासात् सकलो दुःखी नैनम् जानाति कश्चन अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्। व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि तस्यालस्य धुरीणस्य सुखम् नान्यस्य कस्यचित्। इदम् कृतमिदम् नेति द्वन्द्वैर्मुक्तम् यदा मनः धर्मार्थकाममोक्षेषु निरपेक्षम् तदा भवेत्। विरक्तो विषयद्वेष्टा रागी विषयलोलुपः ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान्। हेयोपादेयता तावत् संसारविटपाङ्कुरः स्पृहा जीवति यावद्वै निर्विचारदशास्पदम्। प्रवृत्तौ जायते रागो निवृत्तौ द्वेष एव हि निर्द्वन्द्वो बालवद्धीमान् एवमेव व्यवस्थितः। हातुमिच्छति संसारम् रागी दुःखजिहासया वीतरागो हि निर्दुःखः तस्मिन् अपि न खिद्यति। यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा न च ज्ञानी न वा योगी केवलम् दुःखभागसो। हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा तथापि न तव स्वास्थ्यम् सर्वविस्मरणात् ऋते। ॐ।